इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। पश्चिम बंगाल राज्ये विधानसभा निर्वाचनस्य द्वितीयान्तिम चरणाय प्रचारः तीव्रः अभवत्, यत्र विभिन्नानां राजनैतिक दलानां वरिष्ठाः नेतारः सम्पूर्णे राज्ये सभाः कुर्वन्ति। प्रशासनेन उक्तं यत् देशे उर्वरकोपलब्धता दृढतया स्थिरास्ति। अमेरिकादेशस्य विशेषदूतः स्टीव विटकॉफः, वरिष्ठोपदेशकः जेरेड कुशनरः च ईरानदेशेन सह शान्तिसंवादार्थं पाकिस्तानं गमिष्यन्ति इति अमेरिकादेशेन दृढीकृतम्। तेहरानेन उक्तं यत् इस्लामाबादे अमेरिकादेशेन सह प्रत्यक्षवार्तालापस्य कापि योजना नास्ति। संयुक्तराष्ट्रसंघस्य सामान्यसभायां चेरनोबिल परमाणु दुर्घटनायाः 40वें वर्षं विश्वम् आचरति। परमाणु ऊर्जायाः शान्तियुत उपयोगाय आह्वानमपि अभवत्। ऋतुविभागेन अद्य उत्तरभारतस्य अनेकेषु भागेषु उष्णतरङ्गस्य, पूर्वोत्तरराज्येषु प्रचण्डवृष्टेः च सूचना प्रसारिता। अपि च आईपीएल क्रिकेट क्रीडायां दिल्ली कैपिटल्स पंजाब किंग्स दलयोः मध्ये स्पर्धा प्रचलति। सायंकाले राजस्थान रॉयल्स दलं सनराइजर्स हैदराबाद दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। पश्चिम बंगाल राज्ये विधानसभा निर्वाचनस्य द्वितीयान्तिम चरणाय च प्रचारः तीव्रः अभवत्, यत्र विभिन्नानां राजनैतिक दलानां वरिष्ठाः नेतारः राज्ये अनेकाः सभाः पथप्रदर्शनानि च कुर्वन्ति। भाजपेति दलस्य वरिष्ठाः नेतारः अद्य राज्ये प्रचाराभियाने संलग्नाः सन्ति। केन्द्रीय गृहमन्त्री अमितशाहः पूर्वी बर्दवान हावड़ा नगरयोः जनसभां सम्बोधयति, तदनन्तरं हावड़ा दक्षिण कोलकाता नगरयोः पथप्रदर्शनमपि करिष्यति। केन्द्रीय स्वास्थ्य मंत्री जेपी नड्डा पूर्वी बर्दवान नदिया क्षेत्रयोः पथप्रदर्शनं कुर्वन्ति। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः नवद्वीपं प्राप्तवान अस्ति। तृणमूल कांग्रेस दलस्य प्रमुखा ममता बनर्जी हुगली दमदम भवानीपुर बेहाला इत्येतेषु क्षेत्रेषु प्रचाररता अस्ति। दलस्य सामान्य सचिवः अभिषेक बनर्जी दक्षिण 24 परगनायां, हावड़ायां, मानिकतलायां च सभाः करोति। कांग्रेस दलस्य नेता राहुल गांधी अपि अद्य श्रीरामपुरे, कोलकाता नगरस्य शहीद मीनारे, मेटिया ब्रूजे च तिस्रः जनसभाः सम्बोधयति। वाममोर्चा अपि प्रचाराभियाने सक्रियः अस्ति, यत्र सीपीआईएम इत्यस्य दलस्य राज्यसचिवः मोहम्मद सलीमः, वयोवृद्धः नेता असीमदासगुप्तः च हावड़ायां, पानीहाट्यां, खरदाहे च पथप्रदर्शनस्य सभायाः च नेतृत्वं कुर्वन्तौ स्तः। सर्वकारेण पुनः दृढीकृतं यत् देशे उर्वरकभण्डारः सुदृढः, सुस्थिरः, सुव्यवस्थितः च अस्ति। सर्वेषां प्रमुखाणाम् उर्वरकाणाम् उपलब्धता आवश्यकतापेक्षया अधिकमेव अस्ति। रसायन उर्वरक मन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् सद्यः एव प्रसारिताभियोगाः तथ्यैः समर्थिताः न सन्ति। तेन सूचितं यत् सद्यैव समाप्तस्य अस्य रबी सत्रस्य, वर्तमानस्य च दत्तांशः राष्ट्रव्यापिरूपेण सुखप्रदं, सुसम्बद्धं च आपूर्तिस्थितिं सूचयन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। इज़राइल हिजबुल्लाह इत्येतयोः मध्ये निरन्तरम् उद्विग्नतायाः मध्ये सम्पूर्णे पश्चिम एशिया देशे कूटनीतिः तीव्रतरः भवति, यद्यपि दुर्बलः युद्धविरामोऽपि सङ्कटे एवास्ति। ईरानदेशस्य विदेशमन्त्री अब्बास अराघची महत्वपूर्णायै चर्चायै इस्लामाबादे सम्प्राप्तवानस्ति, यत्र तेहरानदेशेन उक्तं यत् द्वन्द्वस्य समाप्तेः विषये तस्य स्थितिः प्रत्यक्षतया अमेरिकादेशं प्रति नोक्त्वा पाकिस्तानं प्रति प्रेषयिष्यति। ईरानदेशस्य विदेशमन्त्रालयेन स्पष्टं कृतं यत् वाशिङ्ग्टन् इत्यनेन सह प्रत्यक्षोपवेशनस्य योजना नास्ति, परञ्च अमेरिकादेशेन दृढीकृतं यत् तस्य विशेषदूतः स्टीव विटकॉफः, वरिष्ठोपदेशकः जेरेड कुशनरः च ईरानस्य समकक्षैः सह वार्तालापार्थं पाकिस्तानं गच्छतः। विश्वं चेर्नोबिल विनाशस्य 44वं वर्षम् आचरति, अतः संयुक्तराष्ट्रसंघस्य सामान्यसभायां परमाणुशस्त्राणां शान्तियुतप्रयोगस्य आह्वानमभवत्। ह्यः विशेषस्मरणीयसभायां संयुक्तराष्ट्रसंघस्य सामान्यसभायाः अध्यक्षा एनालेसा बेयरबॉक इत्येषा उक्तवती यत् चेर्नोबिल इत्यस्य परिमापः स्पष्टः एव अस्ति यत् परमाणुतन्त्रज्ञानस्य शान्तिरूपेण उपयोगेनापि अन्यैः तन्त्रज्ञानैः मूलभूतरूपेण भिन्नः एव अस्ति। षडशीत्यधिक ऊनविंशतिशततमे वर्षे अप्रैल मासस्य 26 दिनांके चेर्नोबिल परमाणु ऊर्जा केन्द्रस्य इतिहासस्य निकृष्टतमासु परमाणु दुर्घटनासु अन्यतमा अभवत्, येन सम्पूर्णे यूक्रेन देशे, बेलारूस देशे, यूरोप देशस्य च अनेकेषु भागेषु च रेडियो एक्टिव दूषणस्य प्रसारः अभवत्। बेयरबॉकः अवदत् यत् 80 लक्षतोप्यधिकाः जनाः विकिरणस्य संस्पर्शे आगताः, सहस्रशः जनाः मृताः, बालकाः ल्यूकेमिया इत्यादिभिः रोगैः च पीडिताः अभवन्। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अद्य बेंगलुरुनगरे BEML इति आत्मनिर्भर उच्चगति बुलेट रेल निर्माण केन्द्रस्य आदित्येत्यस्य उद्घाटनम् अकरोत्। आकाशवाण्या दूरदर्शनेन च सह वार्तालापं कुर्वन् सः सूचितवान् यत् प्रथमं प्रोटोटाइप अग्रिमे वर्षे प्रकाशयिष्यते, तथा च 27,000 उत्तरभागे निर्माणं भविष्यति।
The plant where the train will be manufactured is this Aditya plant of BML. So the plant is now in very good shape. The design is also completed. Very soon, the manufacturing of B28 bullet train, which is Atmanirbhar Bharat's bullet train, will be started here very soon. The first prototype should be ready early next year, and it should get into operations around late part of 2027. It should be completed.
मन्त्रिणा घोषितं यत् अग्रिमेषु कतिपयेषु मासेषु बेंगलुरु मुम्बई मडगांव वन्दे भारत इत्यस्य सेवा आरभ्यते। बेंगलुरु मुम्बई नगरयोः मध्ये सुपरफास्ट तथा वन्दे भारत शयन रेलयानम् अपि शीघ्रमेव प्रचलिष्यति। भारत ऋतुविभागेन अद्य दिल्ली हरियाणा पंजाब चंडीगढ़ इत्यादिषु केषुचित् भागेषु उष्णतरंगस्य स्थितेः पीतवर्णीया संचेतना प्रसारिता अस्ति। राजस्थान उत्तर प्रदेशयोः अपि श्वः यावत् एतादृशी एव स्थितिः भविष्यति। अद्य बिहार आंध्र प्रदेशस्य तटीय प्रदेश, कर्नाटक गुजरात पश्चिम बंगालस्य गांगेय प्रदेश, केरलम माहे प्रदेश, कोंकण गोवा मणिपुर राज्यानां च केषुचित् भागेषु च उष्ण आर्द्र ऋतुः भविष्यति। अत्रांतरे अद्य अरुणाचल प्रदेशे, असम राज्ये, मेघालये, उपहिमालये, पश्चिम बंगे, सिक्किमे च प्रचंड वृष्टि भविष्यति इति विभागेन पूर्वानुमितम्। आईपीएल क्रिकेट क्रीडायां दिल्ली कैपिटल्स पंजाब किंग्स इत्येतयोः दलयोः मध्ये क्रीडा सम्प्रति प्रचलति। दिल्ली कैपिटल्स दलेन पंजाब किंग्स दलस्य सम्मुखे 65-200 धावनांकानां लक्ष्यं स्थापितम्। तत्रैव सायं 7:30 अन्यस्यां स्पर्धायां राजस्थान रॉयल्स दलं सनराइजर्स हैदराबाद दलं सम्मुखीकरिष्यति। इति वार्ताः।